इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री अवदत् यत् तमिलनाडु सर्वकारः परिवर्तनाय सज्जः अस्ति। सः अवदत् यत् डीएमके सन्नीतः सर्वकारः विकासं कर्तुं विफलः अभवत्। अपि च एषः भ्रष्टाचारापराधवंशीय राजनीतिभिः ग्रस्तः अवर्तत।
तमिलनाडु अब डीएमके के कुशासन से मुक्ति चाहता है। तमिलनाडु अब बीजेपी एनडीए की सरकार चाहता है। एनडीए फैमिली के सभी साथी एक ही संकल्प के साथ जुटे हैं और वो संकल्प है हमें तमिलनाडु को डीएमके सरकार से मुक्ति दिलानी है।
भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता प्रधानमन्त्री च नरेन्द्र मोदी उक्तवान् यत् एनडीए इति राष्ट्रिय लोकतान्त्रिक संयुत्याः सर्वकारेण विगतेषु एकादशसु वर्षेषु तमिलनाडु राज्यस्य विकासाय 11,00,000,00,000 रूप्यकाणि आवंटितानि। तमिलनाडु राज्यस्य मदुरान्तकम् नगरे एकां जनसभां सम्बोधयन् श्रीमोदी अवदत् यत् केन्द्र राज्य समन्वयः कल्याणकारी योजनानां प्रभावि कार्यान्वयनं सुनिश्चितं करोति। ततः पूर्वं प्रधानमन्त्रिणा नरेन्द्र मोदिना गतवासरे केरल राज्यस्य तिरुवनन्तपुरम् नगरे विविध विकास परियोजनाः उद्घाटिताः। नूतनानां रेल यान सेवानां च ध्वज प्रदर्शन पूर्वकं शुभारम्भो विहितः। श्रीमोदी पीएम स्वनिधि क्रेडिट कार्ड इत्येतदपि उद्घाटितवान्। 1,00,000+ लाभार्थिभ्यः पीएम स्वनिधि ऋणस्य वितरणं च अकरोत्। प्रधानमन्त्री त्रीणि अमृत भारत एक्सप्रेस रेलयानानि, एकं यात्री रेलयानम् आहत्य चतस्रः नूतनाः रेलयान सेवाः च उद्घाटितवान्। एतदतिरिच्य सः CSIR NIIST इति नवान्वेषणस्य तन्त्रज्ञानस्य उद्यमशीलतायाः च केन्द्रस्य शिलान्यासं कृतवान्। सः नगरस्य श्रीचित्र तिरुनाळ आयुर्विज्ञान प्रौद्योगिकी संस्थाने अत्याधुनिकस्य रेडियो सर्जरी केन्द्रस्य शिलान्यासम् अपि कृतवान्। नूतनस्य पूजपुर मुख्य पत्रकार्यालयस्य च उद्घाटनम् अकरोत्। तिरुवनन्तपुरे जनसमूहं सम्बोधयन् प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् एनडीए सर्वकारः सम्पर्क विज्ञान नवान्वेषण स्वास्थ्य सेवासु महद् निवेशं कुर्वन् अस्ति। सः अवदत् यत् सम्पूर्णः देशः विकसित भारतम् इत्येतत् लक्ष्यं प्रति संयुक्तरूपेण कार्यं कुर्वन् अस्ति। प्रधानमन्त्री नरेन्द्र मोदी अद्य दृश्य श्रव्य संवाद तन्त्रेण 18 रोजगार मेला इति वृत्तमेलके विभिन्नेषु शासकीय विभागेषु संस्थासु च नवनियुक्तेभ्यः युवभ्यः 160,000+ नियुक्तिपत्राणि वितरिष्यन्ति। अस्मिन् अवसरे सः एकां जनसभाम् अपि सम्बोधयिष्यति। एतत् मेलकं देशे 45 स्थानेषु आयोजयिष्यन्ति। नवनियुक्ताः अभ्यर्थिनः गृहमन्त्रालये, स्वास्थ्य परिवार कल्याण मन्त्रालये, वित्तीय सेवा विभागे, उच्च शिक्षा विभागे इत्यादिषु संस्थासु अनेक मन्त्रालयेषु विभागेषु च वृत्तिं लप्स्यन्ते। भारतीयर्तुविज्ञान विभागेन पंजाब, हरियाणा, चण्डीगढ़, दिल्लीभ्यः आगामि दिवसत्रयाय नारंगवारणकी संचेतना प्रसारितास्ति। केन्द्र सर्वकारेण सार्वजनिक क्षेत्रस्य जनरल इन्श्योरेन्स इति संस्थानेभ्यः नेशनल बैंक फॉर एग्रीकल्चर एण्ड रूरल डेवलपमेंट इत्यस्मै च वेतन संशोधनस्य स्वीकृतिः प्रदत्ता। अन्ते क्रिकेट वार्तायां, भारतेन गतवासरे न्यूजीलैंड दलं 7 क्रीडकैः पराजितम् इति वार्ताः।